अनारम्भस्तु कार्याणाम् प्रथमम् बुद्धिलक्षणम्, आरब्धस्यान्तगमनम् द्वितीयम् बुद्धिलक्षणम्। अयि अध्ययनशीलाः नित्यम् शास्त्रावगाहने लीनाः, संस्कृतकार्यक्रमेभ्यः दत्तावधानाः विद्वांसः श्रोतारः। संस्कृतजगतः प्रसिद्धे एतस्मिन् साप्ताहिकी कार्यक्रमे अहम् ऋचा झा सादरम् सश्रद्धम् च स्वागतम् करोमि। प्रियाः श्रोतारः, जानन्ति एव भवन्तः यत् साप्ताहिकी कार्यक्रमस्य प्रत्येकस्मिन् अङ्के ज्ञानवर्धनाय प्रस्तूयते सुभाषितमेकम्। न केवलम् ग्रन्थाधारितस्य ज्ञानस्य वर्धनाय अपि तु अनुभववर्धनाय अत्यन्तम् उपयोगि भवति एतत् सुभाषितम्। आगच्छन्तु तर्हि शृण्मः अस्य कार्यक्रमस्य प्राणभूतम् अद्यतनम् सुभाषितम्, यच्च प्रस्तौति अस्माकम् सहयोगिनी रिंकू जोशी।
वागर्थाविव सम्पृक्तौ वागर्थ प्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ। कश्चित् कान्ता विरह गुरुणां स्वाधिकारात् प्रमत्तः शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः। यक्षश्चक्रे जनकतनया स्नान्यपुण्योदकेषु स्निग्धच्छाया तरशु वसतिं रामगिर्याश्रमेषु। अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः। पूर्वापरौ तोयनिधेव गाह्य स्थितः पृथिव्या इव मानदण्ड।
अहो, अति सुन्दरम् मधुरम् च। अयि श्रोतृवृन्दाः, सम्प्रति अग्रेसरामः प्रसङ्ग प्रभागम् प्रति, यत्र अद्य मातुः सरस्वत्याः भावपूर्णम् स्तवनम् विदधाति अस्मदीया सहयोगिनी निधिः तिवारी।
कुन्देन्दुहिमधवलां धवल वस्त्रावृतां हंसस्थिताम् वरकच्छपीजं कृतिपरां ब्रह्मेश नारायणनुतां मालाधरां पुस्तककरां निःशेषजाड्य विलोपिनीं अक्षय विद्या विभवदां वाणी वयं वन्दामहे। वाणीं वयं वन्दामहे। वाणीं वयं वन्दामहे। विश्वं समस्तं मोकवज्जायेत यत्कृपया विना भुवनं भवेदन्धं तथा यस्यादया लोकं विना। दूरेन्ति केवातिष्ठतां तां योजयित्रीं प्राणिनां लोकावलम्बनरूपिणी वाणीं वयम् वन्दामहे। वाणीं वयं वन्दामहे। वाणीं वयं वन्दामहे।
कर्णप्रिया सुमधुरा वाणी। सम्मान्याः श्रोतारः साप्ताहिकी वार्ता प्रभागे संसारे यथा कर्म एव फलम् यत् किमपि आप्यते सांसारिकैः तत् तदेव संक्षिप्य अत्र प्रदर्श्यते। साम्प्रतं साप्ताहिकी वार्ताः आदाय उपस्थिता अस्ति कामना झा।
भारतेन क्यूबा देशाय मानवीय सहायता रूपेण औषध निर्माणे सहायकाः 90 टन परिमिति समग्रयाः सन्ति संप्रेक्षिताः। लोकसभा निर्वाचने 64 कोट्याधिकैः मतदातृभिः निज मताधिकारस्य प्रयोगं कृत्वा कीर्तिमानं संस्थापितम्। 43.5% लोकसभा आसनानां परिणामः उद्घोषिताः। MDA इत्यनेन दलेन 92.2% आसनानि विजित्य अतिमतं प्राप्तम्। ओडिशायाः मुख्यमन्त्रिणा नवीन पटनायकेन भुवनेश्वर स्थिते राजभवने राज्यपालाय रघुबरदासाय स्वीय त्यागपत्रं प्रदत्तम्। नेपालस्य प्रधानमन्त्री पुष्पकमलदहलः प्रचण्डः प्रधानमन्त्रिणः नरेन्द्रमोदिनः शपथग्रहणसमारोहे सम्मिलितो भविष्यति। लक्षये भेदन स्पर्धायां सरबजोत सिंहेन पुरुषवर्गे 10 मीटर परिमितस्य लक्ष्यस्य भेदनं कृत्वा स्वर्णपदकं विजितम्।
प्रियाः श्रोतारः, साप्ताहिकी वार्ताभिः जागतिक घटना विषये ज्ञात्वा अनन्तरं पुनः उपस्थिताहं ज्ञान विज्ञान प्रभागान्तर्गतम् एकं साक्षात्कारमादाय। अस्माभिः साकं संवादाय उपस्थितो अस्ति अस्माकं सहयोगिन्या निधि झा इत्यनया सह दिल्ली विश्वविद्यालये समाजशास्त्रस्य सहायक प्राध्यापकः, अभियन्ता, लोकसभायां मैथिली भाषानुवादकः च राहुल झा वर्यः।
अयि शास्त्र परिशीलन दत्तादराः सहृदयाः प्रियाः श्रोतारः, कथ्यते यत् सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम्। स्वागतमस्ति भवतां भवतीनां च ज्ञान विज्ञान संवलिते प्रभागे अस्मिन्। अद्य अस्माभिः सह संवादाय उपस्थितः वर्तते अभियन्ता, लोकसभायां मैथिली भाषानुवादकः, अथ दिल्ली विश्वविद्यालये समाजशास्त्रस्य सहायक प्राध्यापकः, संस्कृतानुरागी च श्री राहुल झाः। महोदयः, आकाशवाण्यां भवतां हर्षातिरेक वचोभिः अहं निधि झाः स्वागतं व्याचष्टे।
धन्योऽस्मि।
महोदय, भवान् तु समाजशास्त्रस्य तत्त्वज्ञः, कथं भवतः रुचिः संस्कृतं प्रति सञ्जाता? कथं स्वकीये शास्त्रे भवान् संस्कृतस्य महत्त्वं पश्यति? संस्कृतविषये भवदीयं किमभिमतम्? संस्कृतं नाम भाषा, साहित्यम् उत वा ज्ञाननिधिः?
ॐ सत्यव्रतं सत्यपरं त्रिसत्यं, सत्यस्य योनिं निहितं च सत्ये, सत्यस्य सत्यमृत् सत्यप्रियनेत्रम्, सत्यात्मकं त्वां शरणं प्रपन्ना। आम्, सत्यमुक्तं भवत्या। संस्कृतभाषाया वर्तमाने वैज्ञानिके आधुनिके च युगे बहवी आवश्यकता उपयोगिता च वर्तते। संस्कृतं केवलं भाषा नास्ति, तस्यां सांस्कृतिकः, ऐतिहासिकः, आध्यात्मिकश्च कश्चन प्रवाहः वर्तते। यः कोऽपि युगः भवतु, मानव जीवनं केवलं विज्ञानेन न प्रचलति। जीवनं सदा सर्वदा संस्कृतेः आध्यात्मभावेन अनुस्यूतं भवति। अतः संस्कृतभाषायाः आवश्यकता सर्वदा वर्तते। ज्ञानेन विज्ञानं भवतु, विज्ञानेन विशेष काचित् विशेष प्राप्ति भवति अस्माकम्। अतः संस्कृतमाध्यमेन साहित्यिकं, प्राचीनं, वैज्ञानिकं च अनुभवं प्राप्य जनाः संसारे सुखिनः भवितुम् अर्हन्ति। यावत् अहं जानामि, संस्कृते केवलं आध्यात्मविद्या नास्ति, संस्कृते केवलं कर्मकाण्डविद्या नास्ति, संस्कृते केवलं वेदाः न सन्ति, केवलं उपनिषदाः न सन्ति, अपि तु तेषु तेषु ग्रन्थेषु काचित् अस्माकं प्राचीना वैज्ञानिकी परम्परा अपि अनुस्यूतां वर्तते। भवती जानाति यत् अस्माकं राष्ट्रे प्राचीनकालादेव धातुविज्ञानं विलसति, प्राचीनकालादेव अस्माकं राष्ट्रे कृषिविज्ञानं विलसति, परमाणुविज्ञानं विलसति, शल्यचिकित्सा विलसति, शस्त्रविद्या विलसति, अथ च अनेकानि शास्त्राणि यानि खलु अस्मान् वसुधैव कुटुम्बकम् इति शिक्षयन्ति, तानि सर्वाणि अपि संस्कृते संस्कृत भाषायामेव अनुस्यूतानि सन्ति, अतः तेषां परिज्ञानं संस्कृत भाषायाः परिज्ञानं विना न भवितुम् अर्हति। अतः यदि वयं भारतं सम्यक्तया ज्ञातुम् इच्छामः तर्हि संस्कृत ज्ञानम् आवश्यकं भवेत्। भवती पृष्टवती माम्, मम बाल्यकालात् संस्कृतं प्रति रुचिः आसीत्, मुख्यतः मम शैक्षिक क्षेत्रे संस्कृत भाषायाः अपि विशेषः अनुरागः अस्ति। समाजशास्त्रस्य मूलं तु संस्कृते एव निहितम् अस्ति। मदीये जीवने श्रीमद्भगवद्गीतायाः विशेषः योगदानम् अस्ति। एतत् अतिरिच्य महाविद्यालये अन्विते नूतन शिक्षानीतौ 20-20 नैतिकता, संस्कृतिः च संस्कृतिः सम्प्रेषणम् इति विषयाः मया पाठ्यते। एतेषु पाठ्यक्रमेषु भगवद्गीतायाः मूल संस्कृत ग्रन्थानां पाठनं विद्यार्थिनां कृते महद् लाभप्रदायकः भवति।
आम्, बहु समीचीनम्। भो धीमन्, आर्टिफिशियल इंटेलिजेंस इति कृत्रिम बुद्धिमता इत्यस्मिन् क्षेत्रे अपि भवतः सुष्ठु प्रवाहः, तर्हि कृपया अस्मान् श्रोतृगणान् कृत्रिम बुद्धेः युगे संस्कृतस्य महत्त्वं प्रतिपादयतु।
संस्कृतस्य सुव्यवस्थित स्वभावः कृत्रिम बुद्धे आर्टिफिशियल इंटेलिजेंस कृते अतीव रोचकः अस्ति। संस्कृत व्याकरणस्य सूक्ष्मता, तर्कशास्त्रं च अनेकेषु कृत्रिम बुद्धे अनुप्रयोगेषु सहायकं भवति। संस्कृतं प्राचीनम् अस्ति, किन्तु एतस्य संरचना च यथार्थतायाः कृते आधुनिक कृत्रिम बुद्धौ अतीव प्रासंगिकं भवति। संस्कृतं उत्तमरीत्या निर्मितस्य सॉफ्टवेयर भाषायाः रूपेण आमानितः। तस्य व्याकरण नियमाः पाणिनिना रचिताः अष्टाध्यायी नियमाः अत्यन्ताः यथार्थाः सन्ति। कृत्रिम बुद्धौ वयम् एतादृशां यथार्थकताम् आवश्यकं मन्यामहे, यतः एतत् दत्तांश परिशीलनम् अधिकं कुशलं यथार्थं च करोति। यथा केषाञ्चित् क्षेत्राणि सन्ति यत्र संस्कृतं प्रभावी भवति। प्रथमं स्वाभाविक भाषा प्रक्रिया, नेचुरल लैंग्वेज प्रोसेसिंग, NLP संगणकान् मानव भाषां बोधयितुं सृजने च सम्बद्धा अस्ति। संस्कृतस्य सुव्यवस्थित संरचना NLP समर्थयन्ति। द्वितीयं भाषिक अनुसंधानम्, संस्कृतस्य व्याकरण नियमाः कोड इव सन्ति, अनुसंधित स्वः एतान् नियमान् उपयुज्य उत्तम भाषा प्रतिमानान् निर्मातुं शक्नुवन्ति, या कृत्रिम बुद्धे मानव भाषा बोधस्य च मूलम् अस्ति। तृतीयं ज्ञान प्रतिनिधित्वम्, संस्कृत ग्रन्थाः अल्पमात्रकस्य प्रारूपेण विशाल ज्ञानान् वहन्ति। कृत्रिम बुद्धिम् उपयुज्य एषां सूचनां डिजिटाइज्ड कृत्वा बोधयितुं शक्यते, येन प्राचीनं ज्ञानं नूतनया रीत्या सुलभं भवेत्। अतः ज्ञायते यत् कृत्रिम बुद्धे भविष्यं रोमाञ्चकं वर्तते, विशेषतः यदा वयं श्रेष्ठं पुरातनं नूतनाविष्कारैः सम्मिश्रणं कुर्मः।
आम्, सम्यक्। महोदयः, भवता समुदीरितं यत् नूतन शिक्षा नीतौ संस्कृत ग्रन्थानामपि अध्ययनं भवति, तर्हि मनसि जिज्ञासा आयाति यत् विद्यार्थिनां प्रतिक्रियाः कथम् आसन् संस्कृत ग्रन्थानाम् अध्ययनं प्रति, अपि च संस्कृत ग्रन्थानाम् अध्ययनं कथं पाठ्यक्रमेषु समन्वयति।
भवती एतत् अपि जानाति यत् रामायणं संस्कृते वर्तते, महाभारतं संस्कृत भाषायां निबद्धं वर्तते, श्रीमद्भगवद्गीता संस्कृत भाषायामेव निबद्धा अस्ति, उपनिषदाः, दर्शनानि, व्याकरणं, न्यायशास्त्रं, सांख्यशास्त्रं, योगशास्त्रं, यत् किमपि अस्ति तत् सर्वं संस्कृत भाषायां स्यूतं वर्तते। संस्कृतम् उपकारिणी भाषा अस्ति इत्यत्र नास्ति कोऽपि सन्देहः। भवती एतत् पृष्टवती यत् विद्यार्थिनां प्रतिक्रिया कथम् आसीत्। विद्यार्थिनां प्रतिक्रिया अतीव अनुकूलाः आसन्, ते एतान् प्राचीन ग्रन्थान् अध्ययनस्य अवसरं सरस्तया अनुभवन्ति। संस्कृतस्य अध्ययनं तेषां सर्वाङ्गीण विकासाय सहायकं भवति, आत्मनः स्थैर्यम्, उद्वेगविरहितं च अनुभवन्ति। संस्कृत ग्रन्थानाम् अध्ययनम् आधुनिक समस्यायाः समाधानं कर्तुम् अपि च तेषां दार्शनिक नैतिक विषयेषु सहायकं भवति। यथा ग्रन्थेषु धर्मः नैतिकता आत्मसंयमः च गम्भीररीत्या उपदिश्यते। एतेषु ग्रन्थेषु विद्यार्थिनः भाषायाः सौन्दर्यम् अनुभवन्ति तथा दार्शनिकभावना अपि गम्भीररीत्या अवगच्छन्ति। नूतनशिक्षानीतौ यः मूल्यवर्धक पाठ्यक्रमः वर्तते तत् निश्चयेन छात्राणां कृते उपयोगी अस्ति।
महोदयः, संवादोऽयम् अतीव ज्ञानप्रदायकः सुरुचिकरः आसीत्। श्रोतारः निश्चप्रचम् धन्यताम् अन्वभूवन्। धन्यवादः।
धन्यवादः। मम कृते अपि एषः संवादः अतीव आनन्ददायकः आसीत्। जयतु संस्कृतम्, जयतु भारतम्।
मन्येऽहं यत् अनेन संवादेन भवन्तः सर्वे निश्चप्रचमेव लाभान्विताः भविष्यन्ति। अयि संस्कृत समाराधकाः, अधुना कार्यक्रमस्य अग्रे बालवल्लरी प्रभागे बालानां सुखबोधाय आत्मानुरञ्जनाय च सुषमा कुमारी प्रस्तौति एकां रुचिकरां कथाम्।
नमस्काराः प्रिय बालाः, अद्य बाल मनोवल्लर्याम् अहम् एकां कथां श्रावयामि। अस्याः कथायाः शीर्षको वर्तते बुद्धेः चातुर्यम्। काकदम्पती एकस्मिन् वृक्षे अवसताम्। कुत्रचित् आगत्य एकः कृष्णसर्पः वृक्षस्य कोटरे अवसत्। सर्पः सदैव काकस्य अपत्यानि अखादत्। काकी अवदत्, अयं सर्पः सदैव मम अपत्यानि भक्षयति। काकः अचिन्तयत्, तदा नदीतीरे गत्वा वृक्षस्य उपरि अतिष्ठत्। एकदा तस्य प्रदेशस्य नृपः तत्र आगत्य स्व आभूषणानि तत्रैव स्थापयित्वा स्नातुं जले प्रविष्टः। काकः तु नृपस्य कनकसूत्रम् आदाय सर्पकोटरे प्रक्षिप्य स्वनीडे अतिष्ठत्। राजपुरुषाः तत्र आगत्य कृष्णसर्पस्य कोटरे कनकसूत्रम् अपश्यन्। ते सर्पं लगुडप्रहारेण हत्वा कनकसूत्रम् आदाय स्वराजभवनम् अगच्छन्। वायसदम्पत्ति अपि ततः परं सुखेन अवसताम्। अतः सत्यमिति यत् उपायेन हि यत् शक्यं न तत् शक्यं पराक्रमैः।
अहो, नूनमेव अनया कथया बालाः उपकृताः भविष्यन्ति। प्रियाः सहृदयाः श्रोतारः, बालवल्लरी प्रभागानन्तरम् अग्रिमः प्रभागो अस्ति एकं भारतं श्रेष्ठं भारतमिति, यत्र मम सहयोगिनी मुदिता वेतालः श्रावयति संस्कृत हिन्दी मराठी भाषासु कतिचन वाक्यानि।
प्रथमं वाक्यमस्ति भारतीय संसदः अंगत्रयं वर्तते। पहला वाक्य है भारतीय संसद के तीन अंग है। मराठी में भारतीय संसदेचे तीन अंग आहेत। द्वितीयं वाक्यमस्ति राष्ट्रपति ही राज्यसभा लोकसभा च भारतीय संसदः अंगत्रयम्। दूसरा वाक्य है राष्ट्रपति राज्यसभा एवं लोकसभा भारतीय संसद के तीन अंग है। मराठी में राष्ट्रपति राज्यसभा आणि लोकसभा भारतीय संसदेचे तीन अंग आहेत। तृतीयं वाक्यमस्ति लोकसभायाः सदस्यानां निर्वाचनं प्रत्यक्ष मतदान प्रणाल्या भवति। तीसरा वाक्य है लोकसभा के सदस्यों का चुनाव प्रत्यक्ष मतदान प्रणाली से होता है। मराठी में लोकसभेच्या सदस्यांची निवड प्रत्यक्ष मतदान विधि ने होते। चतुर्थं वाक्यमस्ति एषमः लोकसभा निर्वाचनं सप्त चरणेषु सम्पन्नम्। धन्यवादः।
निश्चितमेव अयम् संगमः स्यात् ज्ञानवर्धक। अयि श्रोतृजनाः, अधुना तु कालः समायातः प्रस्थान वेलायाः। अग्रिमे सप्ताहे अस्मिन्नेव काले अभिनवम् एकमङ्कमादाय पुनः उपस्थास्यामहे। तावत्पर्यन्तम् भवन्तः सर्वे स्वीय जिज्ञासाम् प्रतिपुष्टि प्रक्रियाम् अस्मभ्यम् प्रेषितुम् शक्नुवन्ति। अस्माकम् ईमेल संकेतो वर्तते nsdsanskrit@gmail.com इति। नमो नमः।